ॐ शुक्लां भरतरं विष्णुं सशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये सरस्वति नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ सर्वेषां स्वागतम् सो वयं गीतासोपानं प्रति गच्छामः. सो अत्र विषयः कः विषयः कः इत्युक्ते त्वान्तम् इक्त्वा इति अस्ति इक्त्वा, परन्तु ककारः गच्छति, केवलं त्वा एव तिष्ठति. सो त्वा इति प्रत्ययः, प्रत्ययः इति वदामः चेत् धातु अथवा प्रातिपदिकम् अस्ति, तदनन्तरं योजयामः. सो अत्र धातु अस्ति, तदनन्तरं प्रत्ययं योजयामः. सो अतः एतस्य प्रत्ययस्य नाम अस्ति कृत् प्रत्ययः इति. कृत् प्रत्ययः, कृत् प्रत्ययः इति अस्ति चेत् त्वान्तम् अस्ति, ल्यवन्तम् अस्ति, तुमुनन्तम् अस्ति, अन्य किम् एतत् वयं जानीमः. त्वान्तं ल्यबन्तं तुमुनन्तम् अपि च तिङ्गन्तमपि अस्ति. तिङ्गपि प्रत्ययः एव, धातु अस्ति, अनन्तरं तिङ् प्रत्ययः अपि अस्ति. परन्तु एतानि प्रत्ययानि कृत् प्रत्ययानि इति वदामः. सो अतः कृत् प्रत्यययुक्तपदम् इत्युक्ते दृष्ट्वा इति. दृश् इति धातु, दृश् इति धातु, अनन्तरं त्वा उपयोगं कृत्वा इक्त्वा, परन्तु त्वा उपयोगं कृत्वा योजयित्वा दृष्ट्वा इति पदं भवति. दृष्ट्वा इति पदं कृत् प्रत्यययुक्तपदं, द पदं विच् हेस् द कृत् प्रत्यय. सो अत्र दृष्ट्वा इति पदस्य नाम कृदन्तं पदम् इति वदामः. कृत् अन्तं पदं, सो तकारः दकारं भवति, कृदन्तं पदं, कृत् अन्तं पदं, कृदन्तं पदम् इति वदामः. एतदेव पठामः इदानीं, पठन्तः स्मः इदानीं. सो अभ्यासः एवम् अस्ति, एतत् सर्वं दृष्टवन्तः पूर्वमेव. चल् धातु, भू धातु, वृत् शीङ् इति कृतवन्तः. इदानीम् अभ्यासे स्मः वयम्. प्रश्नः अस्ति वा? नास्ति इति मन्ये. अस्तु, अधस्तात् आगच्छामः वा अद्य? अस्तु, सविता भगिनी. सो अत्र किं करणीयम् इत्युक्ते वाक्यद्वयम् अस्ति वाक्य. सो अत्र कृत् प्रत्ययस्य लक्षणं किम्? कृत् प्रत्ययः कदा उपयोगं कुर्मः इत्युक्ते एकः एव कर्ता कार्यद्वयं करोति. कृष्णः रथं स्थापयति अनन्तरं. सो स्थापनकार्यं समाप्य द्वितीयकार्यं करोति. एकः एव कार्यद्वयं करोति, प्रथमकार्यं समाप्य द्वितीयकार्यम्. एतदेव लक्षणमस्ति कुत्र योजनीयम् इति. सो अतः यत् कार्यं सः समापयति तस्य त्वान्तं रूपं प्राप्नोति तत् त्वान्तं रूपं प्राप्नोति सो स्थापयति इति अस्ति प्रथमं तिङन्तं पदं सो अत्र स्थापयित्वा इत्युक्ते हेविङ्ग् हेविङ्ग् प्लेस्ड् इट् अथवा अनन्तरं पश्यति इति अस्ति सो अत्र द्वितीयक्रियापदस्य परिवर्तनं नास्ति प्रथमक्रिया पदमेव त्वान्तं रूपं प्राप्नोति इति अस्ति अस्तु भगिनि सविता भगिनि
आं भगिनि अर्जुनः कृष्णस्य वाक्यं शृणोति युद्धाय उत्तिष्ठति अर्जुनः
एतत् कृतवन्तः भगिनि गत नवमं करोतु
नवमं योगिनः कर्मफलानि त्यजन्ति आत्मशुद्धये कर्मं कुर्वन्ति योगिनः कर्मफलानि त्यजित्वा आत्मशुद्धये कर्मं कुर्वन्ति
सो अत्र त्यक्त्वा इति भवति
ओ आम् आं भगिनि आं भगिनि
त्यक्त्वा सो अत्र अन्यलक्षणं किम् इत्युक्ते त्वान्तं पदं एकवचनं द्विवचनं बहुवचनम् अपि च वर्तमानकाल भूतकाल भविष्यत्काल किमपि भवतु एकमेव रूपं त्यजति त्यक्त्वा त्यजतु त्यक्त्वा त्यजामि त्यक्त्वा एव अपि च त्यक्तवान् त्यक्त्वा त्यक्तवती त्यक्त्वा सो भविष्यत्काल अपि त्यक्त्वा एव सो अत्र अतः त्वान्तं पदम् अव्ययम् इति वदामः अव्ययं परिवर्तनं न भवति इन्डिक्लैनबल् अव्ययं परिवर्तनं न भवति इन्डिक्लैनबल् व्ययं न
कर्मफलानि त्यक्त्वा आत्मशुद्धे कर्मं करोति Shall I try the next one, Bhagini?
Maratam?
Sanjayah Krishna Arjuna Samvadam Smarati Harsham Anubhavati. Sanjayah Krishna Arjuna Samvadam Smaritva. Is it correct, Bhagini?
Smritva.
Maranam Smritva. Okay.
Smritva.
Smritva Harsham Anubhavati.
Harsham Anubhavati. Dhanyavada, Bhagini. Sharada, Bhagini. भवती अपि वाक्यद्वयं करोतु
अर्जुनः स्मृतिं लभते स्वधर्माचरणं करोति अर्जुनः स्मृतिं लब्ध्वा स्वधर्माचरणं करोति
अस्तु लब्ध्वा सम्यक्
जीवः कर्मफलं भुङ्क्ते पुनर्जन्म प्राप्नोति जीवः कर्मफलं
भुक्त्वा पुनर्जन्म प्राप्नोति वयं न जानीमः चेत् किं कुर्मः भुङ्क्ते इति अत्र लिखन्तु भुङ्क्ते सम्यक् नास्ति अस्तु एतदपि अस्ति वा न अस्तु भुज् धातु इति वयं जानीमः खलु भुज् धातु एतदेव सम्यक् भुज् अति अत्र बेण्ड् कर्व् न तत् नास्ति भुज् टु ईट् एतत् सम्यक् अत्र भुनक्ति इति अस्ति भुङ्क्ते आत्मनेपदं परस्मै भुनक्ति भुङ्क्ते आत्मनेपदं सो अत्र कृदन्तपदं डेटा नाट् अवेलेबल् वा अस्तु क्षम्यताम् अस्तु अत्र पश्यामः अन्य अस्ति संसाधिनी इति. अहं बिङ्ग् न इच्छामि, सर्वदा एतत् आगच्छति. अस्तु, क्रियापदकोष्टकं देवनागिरि. धातु अस्ति भुज्. क च ट त प प प ब भ भ भव भुज्. ओ भज् अस्ति भुज् आवश्यकम्. ओ बहवः सन्ति. अस्तु, सो अत्र एतदपि आवश्यकम्. रुधादिगणे अस्ति, अत्र रुधादि, एतदपि रुधादि एव. भुज् अव्यवहारे पालने. ऐ चूस् दिस् भुज्. कर्तरि परस्मै किमपि भवतु, पश्यामः. आत्मनेपदि उभयपदि अस्तु. भुनक्ति एवम् एवमेवम् अस्ति. सो अत्र कृदन्तरूपम् आवश्यकं खलु. सो अत्र कृदन्तरूपम् अत्र अस्ति. धातु पुनः अस्तु, समयः अतीतः. अस्तु, एवं. सो दट् इस् हौ यु फैण्ड् औट्. भुङ्क्ते इति अस्ति, भुक्त्वा इति रूपम् इतोपि नास्ति, परन्तु भुक्त्वा इति रूपं प्राप्नुमः. अस्तु, क्षम्यताम्. अस्तु, अग्रे सन्ध्या भगिनि.
योगिनः मनः आत्मने योजयन्ति, ध्यानं कुर्वन्ति. योगिनः मनः आत्मने योजयित्वा ध्यानं कुर्वन्ति.
योजयित्वा, अस्तु, अग्रिममपि.
कर्मबन्धिनः म्रियन्ते, पुनः जायन्ते. कर्मबन्धिनः मृत्वा पुनः जायन्ते.
जायन्ते, सम्यक्. योजयन्ति, म्रियन्ते. अत्र अपि आवश्यकं चेत् वयं द्रष्टुं शक्नुमः.
भगिनी मृत्वा एव खलु
म्रियते, पश्यामः, पश्यामः. म्रियते मृ धातु, मृ धातु कृदन्तरूपं मृत्वा. सम्यक् एव मृत्वा. सो दट् इस् हौ वि फैण्ड् औट्. परन्तु भुङ्क्ते अत्र नास्ति, अत्र संशोधिनी किमपि न कार्यं करोति. अस्तु अस्तु.
योजयन्ति इस् इट् युक्त्वा योजयित्वा?
आं पश्यामः, पश्यामः. तदपि सन्देहः अस्ति चेत् पश्यामः. इट् कुड् बि युक्त्वा आल्सो. युज् धातु योजयति. सो दिस् इस् अ निच् निच् प्रयोगः. योजयति. सो सो अत्र योजयति इति अस्ति खलु. सो इट् बिकम्स् अ चुरादिगणे एवं भवति. चुरादिगणे विसे स्वार्थे निच्. इट् इस् आल्वेस् लैक् अ योजयति, पूजयति, चोरयति, लैक् दट्. साधारणतया पठति, पाठयति विल् बी द निच्. अत्र चुरादिगणे साधारणतया एव एवम् एवमेव भवति. सो इदानीं द कृदन्तपदम् योजयित्वा एव भवति. योजयित्वा एव भवति. इदानीं सन्देहः अस्ति युक्त्वा इति खलु. युक्त्वा इति अस्ति चेत् किं भवति इति खलु खलु भगिनी भवत्याः प्रश्नः. सो अत्रापि युक्त्वा अपि युज् एव. युक्त्वा. सो अत्र युज् इति धातु द्वयम् अस्ति. युज्यते इति अस्ति. आत्मनेपदी धातु अस्ति. अन्यत् अस्ति परस्मैपदी धातु.
धन्यवादः.
निश्चयेन भगिनि. सो अत्र युज् इति पश्यामः चेत् उभयपदी अस्ति. अस्तु. एतत् नास्ति. सो अत्र टु अब्स्टेन् फ्रम् सेन्सेस् दिस् इस् योग इति वदामः खलु. टु बैण्ड् योजयति. सो दिस् इस् वाट् वि आर् लुकिङ्ग् अट् युज् उभयपदि.
भगिनी इस् देर् आल्सो सम्थिङ्ग् लैक् योजति बिसैड्स् योजयति?
योजति. कर्तरि लट्. योजयति इस् देर् आर् योजति. बट् दिस् इस् द मोर् कामन् फार्म् योजयति.
ओके. इट् इस् नाट् लैक् आक्टिव् पासिव् रैट् भगिनि? बोत् आर् ओन्लि.
Yeah, it should be only yojayati because churadigane yati yati evam agacchati. Chorayati, pujayati, yojayati, these are all belonging to churadigana.
No, the reason I was wondering was, Bhagini, whether yuktva would be appropriate for yojati and yojayitva for yojayati.
So atra yuj sanyamane. संयमने टु बैण्ड् अस्तु वा. सो युक्त्वा कुत्र अस्ति इति पश्यामः. युक्त्वा अत्र तथा अस्ति. अपि च टु कान्सन्ट्रेट्, टु फोकस्, दट् इस् लैक् द योगा. वेन् वि डू द योगा अस्तु. युक्त्वा अत्र कर्तरि किं युनक्ति रुदादिगणे अस्ति रुदादिगणे सो इफ् यु हेव् सीन् युनक्ति इति अस्ति चेत् कुत्र अस्ति अद् युनक्ति इति अस्ति चेत् तथा भवति परन्तु अत्र योजयति एव योजयति मीन्स् योजयित्वा योजयति योजयित्वा साधारणतया दट्स् हौ इट् इस् पूजयति पूजयित्वा चोरयति चोरयित्वा त्वान्तरूपं तथा एव भवति अस्तु अग्रे निर्मला भगिनी
नरः ईश्वरे कर्मणां न्यासं कुरुते शान्तिं प्राप्नोति नरः ईश्वरे कर्मणां न्यासं कृत्वा शान्तिं प्राप्नोति
शान्तिं प्राप्नोति
ईश्वरः भक्तं त्रायते धर्मरक्षणं कुरुते ईश्वरः भक्तं त्रायते दोनो भगिनी त्रक्त्वा
पश्यामः त्रायते सो इफ् यु डोण्ट् नो दिस् इस् हौ यु डो त्रायते वाट् इस् द धातु
त्रै
त्रै पुनः अहं त्र एव लिखितवती क्षम्यताम् See, even when I write it, it's not... Trayate, Krudante. Tratva. Ashtu.
Bhaktam Tratva Dharma Rakshanam Kurute.
Ashtu. धन्यवादः जयश्री भगिनी
भक्तः अद्वेष्टा भवति ईश्वरं भजति भक्तः अद्वेष्टा भूत्वा
भूत्वा सम्यक्
ईश्वरं भजति ईश्वरः दुष्कृतां नाशं करोति साधूनां रक्षणं करोति ईश्वरः दुष्कृतां नाशां कृत्वा साधूनां रक्षणं करोति
अस्तु नाशं करोति इति उद्वेष्ट इत्युक्ते उद्वेष्ट टु बिकम् रेस्ट्लेस् वा दुष्कृता इत्युक्ते excited agitated is more agitated than they think about God iti
so excited bhajati excited was looking more natural
okay. Excited okay
dushkrita is bad act maybe bhagini
bad act astha yeah so udveshta it depends positive or negative yeah excited positive agitated negative उत्तम दुष्कृत इत्युक्ते यः दुष्कार्यं करोति सः अत्र दिस् इस् इक्त्वा त प्रत्यय सो इट् बिकम्स् एन् अब्जेक्ट् विशेषणं यः दुष्कार्यं कृतवान् सः दुष्कृतः इति यः सो अतः ईश्वरः दुष्कृतां नाशं करोति इति अस्तु अग्रे का अम्ब वा
भगिनि त्रायति त्रायित्वा
त्रात्वा अम्ब अग्रे
मानवः कर्मणा देवम् अर्चन्ति सिद्धिं विन्दति विन्दन्ति मानवः सः स्वकर्मणा देवम् अर्चयित्वा सिद्धिं विन्दति. योगी अहङ्कारं त्यजति, शान्तः भवति. योगी अहङ्कारं त्यक्त्वा शान्तः भवति.
शान्तः भवति. सो अत्र अर्चयित्वा वा अर्चित्वा वा?
अर्चयित्वा.
पश्यामः. अर्चति इति अहं लिखामि, अर्चति अथवा अर्चन्ति. अर्चि इति अस्ति. अर्चित्वा अस्तु. अग्रे त्वा प्रत्ययस्य त्वा एव ककारः नास्ति इति उच्चारणसमये इति व्यवहारे मीन्स् इन् दि आर्डिनरि कोर्स् लैक् वेन् वि आर्डिनरिलि साधारणतया त्वा इक् इक् इति उच्चारणे नास्ति. त्वा प्रत्ययः इति अपि अपि लैक् आल्सो इक् अपि सम्यक् इक् नास्ति चेत् अपि सम्यक् इति भवति. अस्तु अग्रे गच्छामः. कथा अस्ति अखण्डविश्वासः. अखण्ड इत्युक्ते कम्प्लीट् अथवा डीप् कम्प्लीट् सम्पूर्ण.
Akhanda is without any breaking or breakage.
Without any
whole, yeah, something whole. Whole.
Sampurna Vishwasaha. Bahu Uttama Kata. Asti. Srinivas Mahadi. Aram Kripaya.
Ambahini. Mahabharata Yuddham Asi. Bhishmaha Kauravanam Senapatihi. भूत्वा अष्टदिवसान् यावत् भयङ्करं युद्धं कृतवान्. पाण्डवाः तस्य पुरतः युद्धं कर्तुम् असमर्था चिन्तमग्नाः आसन्. तथापि भीष्मः पाण्डवेषु एकमपि न परितवान् इति मत्वा दुर्योधनः खिन्नः आसीत्.
अस्तु. सो अत्र महाभारतयुद्धम् आसीत्, नूतनविषयः नास्ति तत्र. भीष्मः कौरवाणां सेनापतिः. कौरवाणाम् इति विभक्तिरूपं षष्ठी बहुवचनं. साधारणतया षष्ठी बहुवचनम् अस्ति चेत् लैक् कौरवाणां सेनापतिः आफ् द कौरवास् इति. कौरवाणां सेनापतिः भूत्वा आफ्टर् बिकमिङ्ग् सो दिस् इस् अ त्वान्तपदं. त्वा भू धातु अस्ति. भूत्वा बिकमिङ्ग् आफ्टर् बिकमिङ्ग् लैक् दट् सेनापतिः भूत्वा. सो वि केनाट् स्टाप् द सेण्टेन्स् हियर्. सो अत्र अर्धवाक्यमेव अस्ति. अष्टदिवसान् यावत् भयङ्करं युद्धं कृतवान्. सो अत्र एव सम्पूर्ण वाक्यम् अभवत्. सो अत्र अष्टदिवसान् यावत्. सो दिस् इस् समथिङ्ग् वि हाव् टु रिमेम्बर् हौ टु डु फार् इति. फार् 8 डेस् अष्टदिवसान् यावत् दिनानि अष्टदिनानि अष्टदिनान् यावत्. सो दिस् इस् हौ वि डु इट्. सो अत्र दिवसान् इति विभक्तिरूपं किम् द्वितीया बहुवचन. सो रिमेम्बर् दिस् एक्स्प्रेशन् अष्ट फार् हौ लाङ्ग् आर् यु गोयिङ्ग् टु स्टे देयर् लैक् दट् अष्ट दिवसान् यावत् अहं तत्र भवामि. सो दिस् इस् हौ यु आन्सर् अष्ट दिवसान् यावत् भयङ्करं युद्धं कृतवान्. सो दिस् इस् अ वण्डर्फुल् एक्स्प्रेशन् भयङ्करं. भयङ्करम् इत्युक्ते अहं भयं कारयामि. ऐ एम् गोण् क्रियेट् फियर् इति. भयङ्करं युद्धं कृतवान्. हि क्रियेटेड् फियर् लैक् भयङ्करं युद्धं कृतवान् भीष्मः. पाण्डवाः तस्य पुरतः युद्धं कर्तुम् असमर्थाः नाट् केपबल्. समर्था इत्युक्ते केपबल् इन् इन् तमिळ् भाषा विजयसि समत् समर्थे इट् केम् फ्रम् हियर् समर्था समर्थः. असमर्थाः चिन्तामग्नाः आसन्. चिन्ता इस् यूजुलि ए नेगेटिव् वन् लैक् वरि. चिन्तनम् इस् जस्ट् थिङ्किङ्ग्. चिन्तनं करोति. हि इस् थिङ्किङ्ग्. चिन्तां करोति वरिङ्ग्. चिन्तामग्नाः इमर्स्ड् इन् वरि. चिन्तामग्नाः आसन् पाण्डवाः. तथापि यद्यपि भयङ्करं युद्धं कृतवान् तथापि इति अर्थे. सो द फस्ट् पार्ट् इस् नाट् हियर्. तथापि बट् परन्तु यद्यपि इति अस्ति चेत् इट् इस् एन् इन्कम्प्लीट् सेण्टेन्स्. यद्यपि अस्ति चेत् तथापि अपि आवश्यकं. परन्तु तथापि यद्यपि विहाय कर्तुं शक्नुमः. तथापि भीष्मः पाण्डवेषु एकमपि न मारितवान् इति मत्वा दुर्योधनः खिन्नः. सो अत्र पाण्डवेषु इति अस्ति चेत् अमङ् इति भवति. षष्टि बहुवचनम्. उत्तम. षष्टि बहुवचनं किं महोदय?
सप्तमी बहुवचनं भगिनि.
ऐ एम् सारी, ऐ एम् सारी, ऐ मेन् सप्तमी. ऐ मेन् सप्तमी. सप्तमी बहुवचनं. सप्तमी बहुवचनं. सप्तमी बहुवचनम् अस्ति चेत् अमङ् इति भवति. षष्टि बहुवचनम् आफ् इति भवति. सो अत्र वेन् वि ट्रान्स्लेट् दिस् इस् हौ दिस् अमङ् द पाण्डवेषु. पाण्डवेषु एकमपि न मारितवान् इति मत्वा. मत्वा इस् लैक् नोयिङ्ग् इति. मत्वा दुर्योधनः खिन्नः आसीत्. खिन्नः इति विशेषणं. कस्य विशेषणम्? कः खिन्नः आसीत्? यः खिन्नः आसीत्? दुर्योधनः. सः एव दुर्योधनः. दुर्योधनस्य विशेषणं खिन्नः इति. धन्यवादः महोदय. सविता भगिनी अग्रे.
आं भगिनि. अतः सः भीष्मं दृष्ट्वा अवदत्, भो पितामह, मदपेक्षया पाण्डवाः एव भवतः प्रियाः. अतः भवान् युद्धेपि तैः सह क्रीडति, न कमपि मारयति इति.
अतः एतत् दृष्ट्वा. अतः मीन्स् देयरफोर्. अतः सः भीष्मं दृष्ट्वा, अत्रापि त्वान्तं पदम्, अवदत् भोः पितामह. भोः पितामह मद् अपेक्षया. सो अत्र मद् अपेक्षया इस् अ समस्तपदम्. एकमेव पदम् अस्ति. सो कथं विभजनं कुर्मः? सो अत्र पदद्वयम् अस्ति. मूलरूपमेव वयं वदामः. अस्मद् शब्दः खलु प्रथमम् अस्ति. अस्मद् अथवा अस्मत् अस्मत् एव स्वीकृ अस्मद् अनन्तरम् अपेक्षया. अपेक्षया अपि अव्ययमेव. सो परन्तु एकवचनम् अस्ति चेत् मत् एव स्वीकुर्मः. मत् अपेक्षया मद् भवति. मद् अपेक्षया. मद् अपेक्षया मम अपेक्षया इति अर्थे. मम अपेक्षया. अवगच्छति वा? मद् अपेक्षया इस् आक्चुलि मम अपेक्षया. किमर्थं मम इति भवति? अपेक्षया
अपेक्षया इफ् वि यूस् देन् इट् हेस् टु बि षष्टि.
सम्यक्. अपेक्षया अस्ति चेत् षष्टि एव भवति. सो अतः अस्मद् शब्दस्य षष्टि अस्ति मम. मम अपेक्षया एवमेव विभजनं भवति. मम अपेक्षया पाण्डवाः एव भवतः प्रियाः. अतः भवान् युद्धे अपि. सो अत्र अपि विभजनं भवति चेत् अवग्रहचिह्नम् अस्ति अ. युद्धे अपि तैः सह क्रीडति. केवलं क्रीडति, न मारयति इति कम्प्लेन् करोति. क्रीडति एव, न मारयति. अत्रापि युद्धे अपि. सो अत्र सन्धिकार्यं भवति अत्र, पूर्वरूपसन्धिः इति. अग्रे पश्यामः. अस्तु, अग्रे का
भगिनी? वन् डौट्.
हा
भगिनी, डिड् यु से दट् इट् शुड् बि मम अपेक्षया एण्ड् नाट् मदपेक्षया?
नो नो नो, स्प्लिट् कुर्मः चेत्, वेन् यु स्प्लिट्, सो दिस् इस् अ समस्तपदम्. इट् इस् अ जायिण्ट् पदम्.
मत् प्लस् अपेक्षया वुड् मेक् मत् प्लस् पञ्चमी, रैट् भगिनी?
सो सो अत्र ओके, सो वेन् एवर् वि हेव् अ समस्तपदम्. उदाहरणार्थं चिन्ता मग्ना इस् अ समस्तपदम्. वेन् वि जायिन् टु words together, we call it samasah. Like how when we join two aksharam together, we call it sandhi, right? Sandhi. Like we say ramah and then agachati rama gachati. It's a bad example, but a plus a will make it a, like that. Okay, like this evam eva. When we have two words together, then we can join them together. Udaharanatam, this is an easier one. Chinta magna. So we have chinta magna. How will we split it?
Chinta
plus magna. Chinta is the moola roopam. Okay, so instead of magna, I'll say magnah. So here also magna is the moola roopa. So whenever we have a samasta padam, the first thing we do is come up with the moola roopa. Chinta is the moola roopa, magna is the moola roopa. Parantu, we cannot have chinta magna like that. We have to put vibhakti roopa. सो अत्र विभक्तिरूपं किं भवति? मग्नः. सो बिकास् इट् इस् बहुवचनं पाण्डवाः, वि मेक् इट् मग्नाः. मग्नः अस्ति, मग्नाः सन्ति, पाण्डवाः मग्नाः सन्ति. वाट् अबौट् चिन्ता? विच् विभक्ति शुड् वि एड्? Which vibhakti makes sense?
Chaturthi. Shashti.
Chintaya. Magnaha. Yeah, that makes sense. Chintaya magnaha. How about Mahadeya?
Chintaya means Chaturthi.
Chintaya is Tritiya.
Bhagini, how about Saptami, Bhagini?
Because of Chinta. because of worry, so karana has upsatya, okay.
Chintayam agnaha, atava, saptami chintayam, in worry.
Yeah, in thought, in...
In thought, yeah. In thought. So we can... Mahade, what?
In worry is saptami, because of worry will be tritiya.
Yeah, because of worry. So we can split it in many ways. Chintaya magnaha asit, atava chintayam magnaha asit. He was in worry. So both we can split. But the basic thing is, the moola rupam is chinta. Astuva. Now we come to our example. Okay, so we can say chintaya magnaha asit atava chintayam magnaha asit. Both are making sense. Idanim mad apekshaya. So when we say mad apekshaya, it is actually mad and then apekshaya. Mad apekshaya. So apekshaya, we cannot do anything because apekshaya is a avyayam. So it cannot, we cannot add any more to it. So apekshaya samyakeva. Mad is actually asmad. Asmad shabdaha. Asmad shabdaha, it became mad. Kimartam itikte ekavachanam asti ched mat eva bhavati. It's actually mat. Ekavachanam asti ched mat eva bhavati. Bahuvachanam asti ched, we add the full one, asmad iti. Parantu, if you have to write it in two different words, vibhajanam kritva prithak prithak likamaha ched, atra vibhakti rupam kim bhavati mad iti shabdasya asmad iti shabdasya apekshaya asti chet shashti vibhakti ataha mama apekshaya. When we split it, we write it as mama apekshaya iti.
So, Bhagini, we could not have combined this as mama apekshaya.
No, we cannot combine it. We cannot combine. It cannot become a samasta padam. That's the point, Bhagini. Good. That's the point. You got the point. So, atra, vibhakti rupam yojayamaha chet, vibhajya padam eva bhavati. Samasta padam na bhavati. Samasta padam avashyakam chet moola rupam likitva.
Okay.
Eva bhavati. Avagachanti va sarve?
Same Sunday example, Jagat plus Isha, Jagat Isha comes. So we cannot split it as Jagat and Isha. It is Jagat Isha, Jagat Isha. Right?
Uttama padam bhagini. So we have jagad plus ishah, right? So the takara will become dakara, jagat ishah. So when we split, what happens? Jagat is the moola rupam, kalo jagat. So if we have to split, which vibhakti rupam will be appropriate? Jagat ishah.
Shashti vibhakti,
yeah. He is the lord of the world iti. So atah katam bhavati. Jagat, idanim bhavat iti shabdam we know, bhavat. Bhavat asti che shashti kim?
Bhavataha.
So atra jagat asti. So ataha shashti jagataha eshaha. Uttama udaharana. So atra jagataha eshaha atava jagadeshaha. Avagachanti va? Is it too complicated?
No, Bhagini.
Aam, Bhagini.
Too complicated. Okay. Astha. Astha.
Bhagini, interpreting in two ways. The example once given was Jagat Guru. Jagat Guru can be split into either the Guru for the Jagat or one who has Jagat as his Guru. Jagatam Guru. Guru something like that.
Correct.
The example which I remember.
Correct, correct.
So
exactly.
One word into two ways. You talk correct. About Tritiya and this one, so this could
correct.
Be good.
Correct, exactly correct. Exactly point. That is the exact point. So, atra samasta padam asti ches, we don't know how the writer intended. Jagat. Jagat. Jagataha guruva. Atava. Jagat eva.
Jagatam guru something. This is the example given by the Kanji Paramacharya one.
Samyak, samyak. That's a very good example. So we don't know how to split it. I mean, we don't know what the writer intended. Iti. So atra mama apekshaya is very clear. Mat apekshaya, mama apekshaya. So whenever we have a samasta padam, you know, we have to interpret the way we know. Astu. Astu. Agre? Agre ka? Sandhya Bhagini Kalo? Na? Who's next? Sharada Bhagini Abhavat. Sandhya Bhagini. Etat. Etat Shrutva.
Etat Shrutva. Bhishmaha Dukhitaha Jataha. Jatiti Saha Pratigyan Kritavan Yat. Shvaha Yuddham Kritva. Aham.
Oh, ek nimesh.
Arjunam marayishyami. Athava tena parajitah va bhavishyami iti.
Astu. So atra etat shudva bhishmah dukkitah jatah. Dukkitah api visheshanam. Bhishmah dukkitah. Athava dukkitah bhishmah kinnah asi. Like that, dukkitaha. So this is a, anyway, so jatiti saha pratignyam kritavan yat shvaha yuddham kritva aham arjunam marayishyami atava tena parajitahava bhavishyami. What does it tena parajitahava bhavishyami? What does it mean? Tena. So tena means, I mean, how do we, say it, Arjunena, right? By Arjuna.
I will be defeated by him.
Yeah. Arjunena parajitahava bhavishyami. I will be defeated by Arjuna. Either I will kill Arjuna, aham Arjuna marayishyami, atava tena parajitahava bhavishyami. Atra nutana vishayaha nasti iti manye astu. Nirmala Bhagini.
पाणापक्षे सर्वेपि वीराः चिन्तिताः अभवन् श्रीकृष्णः अपि चिन्तावशात् रात्रौ निद्रां न प्राप्तवान् भीष्मप्रतिज्ञां ज्ञात्वा अर्जुनः तु नितरं चिन्तितः स्यात् इति चिन्तयित्वा सः तस्य सान्त्वनं कर्तुम् अर्जुनस्य सेनाशिबिरं गतवान्.
अस्तु. अत्र बहवः समस्तपदानि सन्ति. भीष्मस्य प्रतिज्ञा सर्वैः ज्ञाताः अथवा भीष्मस्य प्रतिज्ञां सर्वे ज्ञातवन्तः. ज्ञाता इति क्त प्रत्यय, ज्ञातवन्तः तवतु प्रत्यय. तवत् प्रत्यय उपयोगं कुर्मः चेत् कर्तरि प्रयोगे भवति. सो अत्र कर्मणि प्रयोगे सर्वत्र दे यूस् कर्मणि वेरि लिबरलि. कथायां भीष्मस्य प्रतिज्ञा सर्वैः ज्ञाता ज्ञाता. प्रतिज्ञा इति स्त्रीलिङ्ग एकवचनम्, अतः ज्ञाता अपि स्त्रीलिङ्ग एकवचनम्. सर्वे कर्ता इस् तृतीयाविभक्तिरूपे भवति. अवगच्छन्ति वा कर्मणि प्रयोगस्य प्रयोगः कथं भवति इति? ज्ञातवन्तः. सो दिस् ज्ञाता इस् अ त प्रत्यय आल्वेस् भूतकालं सूचयति. भूतकालं सूचयति. सो अतः दिस् विल् बि ईक्वल् टु तवतु प्रत्यय. तवतु प्रत्यय विच् इस् आल्सो इन् भूते एव.
अस्तु भगिनि, धन्यवादः.
सो अत्र भीष्मस्य प्रतिज्ञां सर्वे ज्ञातवन्तः कर्तरि प्रयोगे. अत्र भीष्मस्य प्रतिज्ञा सर्वैः ज्ञाता. सो अत्र सर्वे ज्ञातवन्तः. ज्ञातवन्तः डिपेण्ड्स् आन् सर्वे बहुवचनम्. अत्र ज्ञाता डिपेण्ड्स् आन् द कर्म विच् इस् प्रतिज्ञा स्त्रीलिङ्ग एकवचनम्. दिस् इस् अ क्लासिक् कर्तरि कर्मणि. अस्तु. तां श्रुत्वा, अत्र तां refers to what? Tam Shrutva.
Bhishmasya Pratignyam Shrutva.
Pratignyam Shrutva. Pratignyam. So it is Tam. Dvitiya Ekavachana Strilinga. Pratignyam Shrutva Pandava Pakshe Sarve Api Viraha Chintitaha Abhavan. You're all worried. चिन्तिताः अभवन् श्रीकृष्णः अपि चिन्तावशात्. अत्रापि समस्तपदम् चिन्तया वशात् इति चिन्तावशात्. सो हि वास् ग्रिप्ड् वित् चिन्ता इति आर् अण्डर् द स्पेल् आफ् चिन्ता. चिन्तावशात् रात्रौ निद्रां न प्राप्तवान् कर्तरिप्रयोगे. श्रीकृष्णः निद्रां न प्राप्तवान् अथवा निद्रा न प्राप्ता. कृष्णेन निद्रा न प्राप्ता इति भवति. भीष्मप्रतिज्ञाम् अत्रापि समस्तपदम्. दे आर् यूसिङ्ग् अ लाट् आफ़् समस्तपदं हियर्. भीष्मप्रतिज्ञां हौ केन् यू स्प्लिट् इट्? भीष्मस्य प्रतिज्ञां ज्ञात्वा भीष्मस्य भीष्मस्य प्रतिज्ञा. सो अत्र भीष्मस्य प्रतिज्ञां ज्ञात्वा अर्जुनः तु नितरां चिन्तितः स्यात्. स्यात् मीन्स् प्राबब्लि इति. चिन्तितः स्यात्. सो दिस् इस् अ लिङ्ग् लकार विधिलिङ्ग् लकार. स्यात् इति चिन्तयित्वा स्वान्तपदं चिन्तयित्वा सः तस्य सान्त्वनं कर्तुं. सान्त्वनम् इत्युक्ते टु पेसिफै, टु कन्सोल् हिम् इति. सान्त्वनं कर्तुं सः तस्य. सः रेफर्स् टु कृष्णः, श्रीकृष्णः. तस्य इत्युक्ते अर्जुनस्य. श्रीकृष्णः अर्जुनस्य सान्त्वनं कर्तुं अर्जुनस्य शिबिरं सेनाशिबिरं गतवान्. सेना सेनायाः शिबिरं सेनायाः शिबिरं गतवान्. सो अत्र विभजनं कृत्वा लेखितुम् इच्छामः चेत् विभक्तिरूपम् आवश्यकं, नो चेत् मिलित्वा लिखामः.
तो क्षम्यतां भगिनि, चिन्ता भीष्मप्रतिज्ञां, दोस् आर् समास भवति
कुत्र कुत्र भगिनि
चिन्तावशात्
चिन्तावशात् भीष्म भीष्मप्रतिज्ञां सेनाशिबिरं
समस्तपदं समास भवति
समासः भवति समासः भवति
धन्यवादः भगिनि
धन्यवादः अग्रे निर्मला भगिनि
भगिनि
आम् हा उषा भगिनी स्वागतम्
अहं विलम्बेन आगतवती वाट् इस् द डिफ्रेन्स् बिट्वीन् यु से समस्तपदम् अण्ड् समासः
सेम् भगिनि सेम्
जस्ट् डिफ्रेण्ट् वे आफ् सेयिङ्ग् इट्
आम् आम्
ओके
अस्तु पर्यायपदम् अस्तु अग्रे निर्मला भगिनि क्षम्यतां जयश्री भगिनि
आं भगिनि परन्तु श्रीकृष्णस्य महत् आचार्यम्
आश्चर्यम्
आश्चर्यं सञ्जातं यतः यदा सः गत्वा दृष्टवान् तदा तत्र अर्जुनः गाढनिद्रायां मग्नः आसीत् सः अर्जुनम् उत्थाप्य पृष्टवान् भोः पार्थ किं भवान् भीष्मस्य प्रतिज्ञां न श्रुतवान् इति
अस्तु परन्तु श्रीकृष्णः श्रीकृष्णस्य महत् आश्चर्यम् आश्चर्यम् इति नपुंसकलिङ्गपदं सो अतः महत् इति विशेषणं सञ्जातमपि विशेषणमेव आश्चर्यम् इस् द एङ्कर् विशेष्यम् महत् आश्चर्यं पुल्लिङ्गः अस्ति चेत् महान् भवति स्त्रीलिङ्गे महती इति भवति अस्तु यतः यदा सः गत्वा दृष्टवान् तदा तत अर्जुनः गाढनिद्रायां गाढ इत्युक्ते गाढनिद्रायां मग्नः वयं दृष्टवन्तः खलु चिन्तामग्नः इति सो वेन् वि स्प्लिट् इट् चिन्तायां मग्नः पूर्वं दृष्टवन्तः खलु समस्तपदं कुत्र
भीष्मप्रतिज्ञां एण्ड्
फस्ट् पेराग्राफ् वा चिन्तामग्नः सम्यक् अत्र चिन्तायां मग्नः अत्र निद्रायां मग्नः सप्तमी दे आर् यूसिङ्ग् सप्तमी टु स्प्लिट् इट् वाट् अ वण्डर्फुल् आर्टिकल् निद्रायां मग्नः आसीत् सो अत्र समस्तपदं कर्तुम् इच्छामः चेत् गाढनिद्रामग्नः एवं गाढनिद्रा सो अत्र केवलं मूलरूपमेव आगच्छति निद्रा निद्रायां वयं त्यजामः समासे
सो भगिनि गाढनिद्रा मग्नः समस्तपदं
समस्तपदम् अथवा समासः सः अर्जुनम् उत्थाप्य इस् अ निच् प्रयोगः मिच् इति वदामः चेत् दे आर् मेकिङ्ग् सम्बडि एल्स् डु अर्जुनः उत्थाय हि इस् गेटिङ्ग् अप् हिम्सेल्फ् उत्थाप्य कृष्णः इस् वेकिङ्ग् अर्जुन अप् मिच् प्रयोगः अत्र सः कृष्णम् उत्थाप्य पृष्टवान् भोः पार्थ किं भवान् भीष्मस्य प्रतिज्ञां न श्रुतवान् सो अत्र इफ् यु वाण्ट् टु मेक् इट् अ समस्तपदं वाट् विल् वि वाट् शुड् वि डु विभक्ति एडिशन् विल् गो अवे भीष्मप्रतिज्ञा एव भवतु
भगिनि डिड् यू से सञ्जात इस् आल्सो विशेषणम्
या आश्चर्यं सञ्जातम्
सो भगिनी क्रियापद कः
विशेष्य कः
विशेष्यम् इस् आश्चर्यम्
I wouldn't have thought Sanjatam would be Visheshanam because Sanjatam means happened?
Happened.
So how, it's not like an adjective, right?
Yeah, so Sanjatam is a Ta Pratyaya. Ta Pratyaya, Tavati Pratyaya, they are all Visheshanam eva.
Okay, I see.
Jayate is a Kriyapadam. Jayate. Jatam is a ta pratyaya visheshana. Ta atava tavatu, they are all visheshana.
Okay.
Astu, agre. Agre ka, amba.
Shrutvan idi uktavan arjunaha. Tarhi tam shrutvabhi katam bhavan chinditaha nasti mrityubhayat udgirna अपि नास्ति इति श्रीकृष्णः पृष्टवान् अर्जुनः किञ्चित् हसित्वा शान्तस्वरेण उक्तवान् भगवान् अहं सम्यक् जानामि यत्य मम
अस्तु एतत् पर्याप्तं पठतु मम
योगक्षेमस्य चिन्तां करोति सः जागरणं कुर्वन् अस्ति इति एवं सति
पर्याप्तम् सो अत्र श्रीकृष्णः अर्जुनं पृष्टवान् भवान् न श्रुतवान् वा भीष्मस्य प्रतिज्ञा इति आम् श्रुतवान् इति उक्तवान् अर्जुनः तर्हि मीन्स् देन् इति अर्थे तर्हि तां श्रुत्वा सो अत्र किम् अस्ति अत्र श्रुत्वापि कथं विभजनं कुर्मः श्रुत्वा अपि सो अत्र समस्तपदं नास्ति किमर्थं समस्तपदं नास्ति
अपि इस् अव्यय
नाट् बिकास् आफ् दट् पूर्वपदं पश्यन्तु
विभक्ति नास्ति
परन्तु इट् इस् अ सम्पूर्णपदं वि केन् रै श्रुत्वा
इस् तवतु
त्वा प्रत्यय सो वि केन् रैट् श्रुत्वा अपि सो दिस् इस् ओन्ली अ सन्धिकार्यं हियर् सन्धि श्रुत्वापि केवलं सन्धिकार्यम् एव अस्तु तर्हि तां प्रतिज्ञां श्रुत्वा अपि कथं भवान् चिन्तितः नास्ति वै आरण्ट् यु वरीड् चिन्तितः किमर्थं चिन्तितः नास्ति मृत्युभयात् सो अत्र मृत्युभयात् समस्तपदम् उद्विग्नः अपि नास्ति उद्विग्नः इत्युक्ते किम् excited, agitated, so atra negative asti, negative, agitated, kim artham agitated nasti, mrityoh bhayat, so atra split kurmaha chet evam bhavati, atra samastha pada, mrityoh bhayat, the bhayam of the death, मृत्योः भयात् उद्विग्नः अपि नास्ति इति श्रीकृष्णः पृष्टवान् अर्जुनः किञ्चित् हसित्वा शान्तस्वरेण सो अत्र अपि शान्तस्वरेण स्प्लिट् कुर्मः चेत्
शान्तस्वरेण
शान्त इति अस्ति शान्तेन स्वरेण वा शान्तेन स्वरेण उक्तवान् भगवान् अहं सम्यक् जानामि यः मम योगक्षेमं चिन्तां करोति सः जागरणं कुर्वन् अस्ति इति अर्थः कः एतस्य वाक्यस्य? यः मम योगक्षेमस्य चिन्तनं करोति. He who is
Krishna.
Worried about my yogakshemam. Saha jagaranam kurvan asti. Artaha kaha jagaranam kurvan asti?
You are waking up. My well-being is waking me up.
Awake. Jagaranam kurvan asti. Saha jagaranam kurva. Yeah, waking me up makes sense also. Parantu atra, I'm thinking, is awake. So atra, yoga hai itikte kim, kshema hai itikte kim.
Roha means accumulating, shema means protecting.
Correct. Accumulating and protecting. We need both. Hello? We need both. So, we look for something which we don't have. Yoga. Kshemam is protecting. Protecting what we already have. Arthu. Chintam. So, atha chintam is worry. Yaha mama yoga kshemasya chintam karoti, saha jagaranam kurva nasti. So, atha yoga kshema api samastha padam. Split kurmah che katam likamah yogasya kshemasya cha chintam karoti. If you have to put everything together, if I want to make all three together as a samasa,
yoga kshema chintam.
No, we cannot have the vibhakti in the middle.
Yoga kshema chintam.
All three together, we can put words together without the vibhakti. Yoga kshema chintam karoti. Yaha yoga kshema chintam karoti. Saha jagaranam kurvan asti idani. Iti. Astu. Dhanyavad hamba. Champa bhagini. Agree.
एवं तस्ति अहं किमर्थं चिन्तां कृत्वा दुःखितः भवामि. स्वस्य भक्तस्य भीष्मप्रतिज्ञायाहं रक्षणं भारं भवतः एव. मम का चिन्ता तत्र?
धन्यवादः भगिनि, पर्याप्तं. स्वत्र एवं सति इत्युक्ते एवं स्थितिः अस्ति इति अर्थे. यदा एवमेव अस्ति, अहं किमर्थं चिन्तां कृत्वा दुःखितः भवामि? स्वस्य भक्तस्य भीष्मप्रतिज्ञायाः रक्षणभारः भवतः एव. मम का चिन्ता तत्र? स्वत्र एवं सति अहम् अहम् अहं किमर्थं चिन्तनीयम् इति. मम कृत्वा दुःखितः भवामि. किमर्थं चिन्तां कृत्वा दुःखितः भवामि? स्वस्य भक्तस्य. स्वस्य मीन्स् टाकिङ्ग् अबौट् कृष्ण. स्वस्य भक्तस्य भीष्मप्रतिज्ञायाः रक्षणभारः. सो अत्र we have again samastha pada, right?
Sva bhakta prati bhishma pratignayaha. So pratignya.
Bhishmasya pratignayaha rakshanasya bharaha. It became rakshana bhara.
Pratignayaha would be shashti, right?
Bhishmasya pratignayaha rakshana bharaha. षष्टि न अत्र पञ्चमी. किमर्थं किमर्थं पञ्चमी? फ्रम् खलु प्रतिज्ञातः फ्रम् सो अत्र समानरूप प्रतिज्ञायाः पञ्चमी एस् वेल् एस् षष्टि. कस्य प्रतिज्ञायाः? भीष्मस्य प्रतिज्ञायाः रक्षणभारः अगेन् समस्तपदम् स्प्लिट् कुर्मः चेत् रक्षणस्य भारः.
भीष्मप्रतिज्ञा समस्तपदम्
कस्य? सो सर्वत्र तथा एव अस्ति खलु, भीष्मस्य प्रतिज्ञा भीष्मस्य प्रतिज्ञा भीष्मस्य अत्र पश्यतु भीष्मस्य प्रतिज्ञा अथवा भीष्मप्रतिज्ञा. द फस्ट् वन् इस् षष्टि, सेकेण्ड् वन् इस् पञ्चमी.
भीष्मस्य प्रतिज्ञायाः
भीष्मस्य षष्टि, परन्तु प्रतिज्ञायाः रक्षणं रक्षणं फ्रम् द प्रतिज्ञा पञ्चमी. प्रतिज्ञायाः रक्षणभारः अथवा रक्षणस्य भारः भारः भगवत् इति मूलरूपं भगवत् अण्ड् देन् भवत् समानं. सो भगवतः भवतः एव उत्तम. वेरि नैस्.
भगवतः इस् आल्सो षष्टि और् पञ्चमी?
वाट् डु यू थिङ्क्?
भगवतः
भवतः षष्टि
षष्टि
भगवतः इस् आल्सो षष्टि
युवर् द the bharaha is
your
responsibility like that.
Okay,
you are the god, so god's yours like that. Bhagavatah, so bhagavatah is a visheshana, they are both like that. Bhavatah is kidisha bhavatah bhagavatah bhagavan.
So there is shashti, right?
Shashti भगवतः भवतः एव. मम का चिन्ता तत्र? वेर् इस् मै वरि? उत्तमं खलु, उत्तमम्. अस्तु अग्रे श्रीनिवास महोदय. वदतु भगिनि.
सप्तमी खलु भगिनि?
किं भगिनि?
एवं सति अस्तातु खलु भगिनि?
धातु सप्तमी.
तत्र वयं भूधातु अपि
भूधातु अपि समानमेव.
एवम् एवं भवति. अहं किमर्थं चिन्ताम् इति?
इन् दिस् सिचुवेशन् लैक् इन् लैक् इफ् दिस् बीङ्ग् लैक् दिस् एवं लैक् द.
Also, Bhagini, I'm sorry, I didn't understand this. I mean, as two separate words, I understand Bhagavataha, Bhavataha. Then we put that together, what is the interpretation, Bhagini? Rakshanabharaha, Bhavataha, Eva, I understand.
Let me write it like this, okay? Bhavan, Bhagavan, okay? Bhavan, Bhagavan. भवतः भारः
योर् रेस्पान्सिबिलिटि.
सो कीदृश भवतः? दिस् इस् हौ वि आन्सर् द आस्क् द क्वश्चन्. कीदृशः भवतः? भवतः भवतः.
ओके, इट्स् लैक् सेयिङ्ग् लार्ड् हनुमान्स् रेस्पान्सिबिलिटि.
हनुमान्स् रेस्पान्सिबिलिटि. सो तत्र अपि इट् जस्ट् हेपेन्स् हनुमान् इस् आल्सो हनुमत् It's a good example. So atra it will become Bhagavatah Hanumatah Bharah. Bhagavatah Hanumatah Bharah. So we can just, so Hanumatah is the Visheshyam. Kidusha Hanumatah Bhagavatah. But instead of using Bhagavan, if I'm saying Ramaduta, another way of describing Hanuman. Ramaduta. So how will I match it Visheshanam? Shashti Ramaduta is an Akaranta Padam like Rama.
Bhagavatah Ramaduta Hanumatah.
Bhagavatah is Shashti. Hanumatah is Shashti. Ramaduta is like Rama, Akaranta Padam.
Ramadutasya Hanumatah.
Ramadutasya. Bhagavatah Ramadutasya Hanumatah Bharah. Sarve avagacchanti va?
Aam bhagini.
So here if I want to make it, if I want to add Krishna, how will I add in the middle Krishna? Bhagavatah
Krishnah.
Krishnah.
Krishnah is Pratama Vibhakti. Bhagavatah is Shashti.
Bhagavatah
is Krishnasya.
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 So Bhagavatah Krishnasya Bhavatah Eva. Like that. Complicated. But if you think word by word, it's okay.
So how to ask the question about
Kidrisha, what type?
But we can also substitute Bhavatah with Krishnasya.
Not, no, when you say Bhavatah, you're saying your.
No, Bhagavatah Krishnasya Eva.
Bhagavatah Krishnasya Eva. Bhagavatah Krishnasya Eva. But here they are doing a play on words. Bhagavatah, Bhavatah, like that. Confusing us.
Bhavatah and Krishnasya, Bhavatah is you, Krishnasya also is you only. There is no need to use both, I am saying.
Yeah, we don't need to use both, no. But if we use all this, it becomes clearer in our mind.
Yeah, Bhagavatah, Bhavatah is a play with the word, right? No, it's confusing, at the same time, it's a playful also.
Yeah, it's playful. Wonderful, yeah. Wonderful way of saying it.
Can we say Bhagavan Bhavatah?
No. Because Bhavatah is Shashti. So if you are going to attach another word to it, it has to have the same Vibhakti. It has to match.
So
Vibhakti Vachana Linga. It has to.
Bhavatah is a compound word.
Uttama. So Bhagavat, it becomes Bhagavat will be the compound word. Bhagavat Bhavatah, like that. So it will become Bhagavad. It will become Id. Bhagavad Bhavatah. If you want to compound it like that. Astu agre Srinivas Mahodaya.
Aham bhagini. Mam
mamaka
chinta tatra atah eva aham nischintataya nidram kurvan asti iti.
Kritavan asmi.
Kritavan asmi.
Asmi.
Satyam kalu arjunasya etadrisham dritam vishwasham मत्वा एव श्रीकृष्णः पार्थसारथि अभवत्.
उत्तमम्. सो अतः अर्जुनः वदति मम का चिन्ता तत्र, चिन्ता एव नास्ति, भवान् चिन्तां करोतु, अहं चिन्तां न करोमि. अतः एव अहं निश्चिन्ततया निश्चिन्ततया इत्युक्ते चिन्तां विना निद्रां कृतवान् अस्मि. सत्यं खलु? सो दिस् इस् अ नरेटर् सेयिङ्ग् सत्यं खलु. अर्जुनस्य एतादृशं दृढं विश्वासम्. सो मत्वा इत्युक्ते ज्ञात्वा एव श्रीकृष्णः पार्थसारथिः अभवत्. सो अत्रापि समस्तपदम्. हौ विल् वि स्प्लिट् इट्? पार्थस्य सारथिः. सो अत्र दृढं विश्वासं, हौ केन् वि कम्बैन् इट्? जस्ट् लैक् हौ वि सा अखण्ड अखण्ड विश्वास, लैक् अखण्ड अखण्ड अखण्डः विश्वासः. सो अत्र विश्वासः इस् लैक् प्रथमा विभक्ति अखण्डः. सो अखण्डः इट् हेस् टु बि अखण्डः अखण्डः विश्वासः. हियर् इट् इस् दृढं विश्वासम् अस्ति. Because it is vishwasam, it was dridam. If it was akanda, it should be akandam vishwasam. Like that. Uttamam kalo? Very complicated. But it's good if we know. Asti. Asti. Samyaha asti. Ataha kinchit kurmaha. Etasmin pate prayuktani tva प्रत्ययान्तानि रूपाणि चित्वा लिखत. के सन्ति? पूर्वमेव पठितवन्तः, पुनरेकवारं करणीयं वा? भूत्वा. अस्तु, उत्तमम्. अग्रे गच्छामः. यतोदाहरणं वाक्यद्वयं कृत्वा लिखत. ओके, पूर्वस्मिन् अभ्यासे वयं योजितवन्तः भवती युद्धं करोति भूत्वा इति. इदानीं भूत्वा अस्ति भवति इति लिखतु. अस्तु, अत्र दृष्ट्वा इति अस्ति. उषा भगिनी, सः भीष्मं दृष्ट्वा अवदत्. दृष्ट्वा कथं वदामः?
दृष्ट्वा.
अत्र भूत्वा दि ओरिजिनल् वास् भवति. सो दे आर् यूसिङ्ग् लट्लकार वर्तमानकाल. बट् इट्
दृश्यति
सः भीष्मं पश्यति. बिकास् इट् वास् अवदत् विल् काल् इट् भूतकालम्. ओके, सो दृष्ट्वा वाट् विल् बी द भूतकाल?
अपश्यत्.
अस्तु, अथवा दृष्टवान्.
ओ ओके, दृष्टवान्, बट् दट् इस् आल्सो भूतकालं, बट् इट् इस् नाट् लङ्लकार सच्, इट्स् जस्ट् अ भूतकाल. ट्रैङ्ग् टु मेक् इट् इन् टु लङ्लकार. दृष्टवान् सौण्ड् बेटर्.
अपश्यत् वा?
अपश्यत्.
अस्तु,
अपश्यत्
भवती वदतु.
सः भीष्मम् अपश्यत् च अवदत्.
सः अवदत् सि लैक् दिस् सः भीष्मं पश्य अपश्यत् अवदत् अथवा सः अवदत्.
There's no need to put cha and.
No, because we are making two different sentences, not cha.
Okay.
Atra pashyantu.
Yeah, so there will be a kind of a full stop. Bhishmam apashyat.
Avadat. Saha avadat, atava avadat.
Avadat, okay.
Astu. Savita bhagini agri.
Haan bhagini. Bhishmaha et.
Vadat. Bhagini. न न न ऐ वास् गोयिङ्ग् टु से अग्रिमवर्गे कुर्मः वा इति.
भीष्मः एतत् श्रुत्वा दुःखितः भवति. भीष्मः एतत् भवति
लट्लकारः. सो वि मेक् इट् लट्. भीष्मः एतत्
शृणोति.
सम्यक् शृणोति.
भीष्मः एतत् शृणोति दुःखितः भवति.
दुःखितः भवति सम्यक् अस्तु. शारदा भगिनी
श्वः युद्धं कृत्वा.
सारी भगिनी, वन् डौट्.
आं भगिनि.
भगिनि, इन् द प्रीवियस् सेण्टेन्स् वि सेड् सः भीष्मं दृष्ट्वा अवदत्. सो वि आर् using the past tense because it is avadat, right?
Avadat, because of avadat. Because if you write in present, it's not working out. Right. Saha bhishmam pashyati and then avadat became past tense. So that it is not working out.
So we have to refer to the verb that follows, because just by using a drishta or shrutva, we cannot figure out whether, I mean, what tense it might be.
Aam, correct. Because kimartam ityukte, it works for all tenses. Bhuta, bhavishya, lang, ekavachanam, dvivachanam, purusha, it doesn't matter. So it is the same word for everything. Aham drishtva, bhavati drishtva, sarve drishtva, kurmaha, kritavantaha, karomi, everything. Same thing.
So there we could have used either apashyat or drishtavan, right?
Drishtavan or apashyat, yeah.
Dhanyavad. Sorry to have interrupted.
No. Uttama, actually it's a summary, saramshah, uttama. Astu bhagini, agre.
Shvaha yuddham krithva arjunam marayishyami. Shvaha yuddham krithva karishyami.
युद्धं करिष्यामि.
अर्जुनं मारयिष्यामि.
सम्यक्. सो दिस् इस् भविष्यत् काल. सो करिष्यामि इस् आल्सो भविष्यत् काल. उत्तमम्. अस्तु अग्रे सन्ध्या भगिनी, वि हव् टु मोर् मिनिट्स्, समापयामः.
श्रीकृष्णः, रैट् भगिनि?
आम्
श्रीकृष्णः भीष्मप्रतिज्ञां ज्ञात्वा उपायं चिन्तयति. श्रीकृष्णः भीष्मप्रतिज्ञां ज्ञातवान्.
चिन्तयति, उपायं चिन्तयति. चिन्तयति इस् प्रेसेण्ट् टेन्स्, लट्लकार.
ओ ओ ओ सारी, ओके ओके. सो देट् इस् अनदर् इण्डिकेशन्. जानाति,
सम्यक्, जानाति. श्रीकृष्णः जानाति, उपायं चिन्तयति. सम्यक्. अस्तु अग्रे निर्मला भगिनि.
शिबिरं गत्वा अर्जुनं दृष्टवान्. श्रीकृष्णः शिबिरं गच्छति.
गतवान् अर्जुनं दृष्टवान्. अस्तु सम्यक्. अस्तु अग्रे जयश्री भगिनि.
अर्जुनः हसित्वा शान्तस्वरेण वदति.
अर्जुनः हसति
शान्तस्वरेण वदति. उत्तमं भगिनि. अस्तु अम्ब, समयः अभवत् परन्तु
अहं किमर्थं चिन्तां कृत्वा दुःखितः भवामि? अहं किमर्थं चिन्तां
भवामि? पुनः वदतु. अहं किमर्थं चिन्तां
करोमि?
उत्तम. करोमि दुःखितः भवामि इति. अस्तु, समापितवन्तः. अग्रिमवर्गे इतः आरम्भं कुर्मः. धन्यवादः. शान्तिमन्त्रम् उक्त्वा समापयामः. कोऽपि वक्तुम् इच्छति वा शान्तिमन्त्रम्? वदतु भगिनि.
ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ. धन्यवादः भगिनि.
धन्यवादः.
धन्यवादः.
पुनः मिलामः.
पुनर्मिलामः. धन्यवादः. Thank you.